एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा सुशीला कार्किणा ह्य प्रमुखत्रयाणां दलानां शीर्ष नेतृभिस्सह आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभा सदस्यानां निर्वाचनस्य विषये विमृष्टम् वर्तते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे पूर्वे द्युः विहिते विमर्शने सहभागिभिः नेतृभिः निर्वाचने सहभागिता भविष्यति, परं तदर्थं निर्वाचनस्य वातावरणं निर्मितं नास्ति, तच्च दायित्वं सर्वकारस्य अस्तीति उक्तं वर्तते। उपवेशस्य पश्चात् बहिरागमनस्य क्रमे संचारकर्मिभ्यः संक्षिप्त प्रतिक्रियां प्रददत् नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा, कांग्रेस दलेन सहितानि सर्वाण्यपि दलानि निर्वाचनाय तत्पराणि सन्ति, परं सुरक्षायाः अवस्था निर्मिता नास्तीत्यतः सुरक्षायाः प्रत्याहुतेः दापनत्वेन सर्वकारेण कार्यं कर्तव्यमिति प्रावोचत्। त्रयाणां दलानां शीर्ष नेतृभिस्सह विमर्शनस्य पश्चात् सर्वकारस्य प्रवक्ता च संचार सूचना प्रविधि मन्त्री जगदीश खरेलः निर्वाचनाय सर्वाणि दलानि तत्पराणि सन्ति, सुरक्षायाः प्रत्याहुतेः पश्चात् निर्वाचनस्य वातावरणं निर्मितं सद् सर्वेषां दलानां निर्वाचने सहभागिता भविष्यति इति प्रतिबद्धता नेतृभ्यः प्राप्तास्ति इति अगदत्। मेलनस्य क्रमे प्रधानमन्त्री सुशीला कार्की सर्वकारः निर्वाचनस्य कृते सर्वविधावश्यकतायाः प्रपूरणाय तत्परोऽस्ति इति विज्ञापितमासीदिति मन्त्री खरेलः असूचयत्। निर्वाचनायोगेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते ह्य अन्तिमा मतदातृनामावली प्रकाशिता अस्ति। गत प्रतिनिधिसभा सदस्यानां निर्वाचने प्रदेशसभा सदस्यानां निर्वाचने च एककोटि अष्टसप्ततिर्लक्षाणि अष्टाशीति सहस्राणि पञ्चशतं सप्ततिश्च मतदातार आसन्। अस्मिन् वर्षे नवलक्षाणि पञ्चदश सहस्राणि एकशतं एकोनविंशतिश्च मतदातार वर्धिता सन्ति इति आयोगेन ज्ञापितम् वर्तते। सम्प्रति एककोटिः एकोननवतिर्लक्षाणि त्रीणि सहस्राणि षट्शतम् एकोननवतिश्च मतदातारः वर्तन्ते इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराय असूचयत्। आगामिनः फाल्गुन मासस्य विंशं दिवसं यावत् प्राप्ताष्टादश वर्ष वयस्कानां नागरिकाणां विवरणम् अद्यावधिकं विधाय अन्तिमा नामावली प्रकाशिता अस्ति इति प्रवक्ता भट्टराय असूचयत्। एवमेव आसन्न निर्वाचनस्य कृते आराष्ट्रं दशसु सहस्रेष् नवशते सप्तषष्टौश मतदानस्थलेष् त्रयोविंशतिः सहस्राणि एकं शतं द्वादश च मतदानकेन्द्राणि निर्धारितानि सन्ति। अत्रान्तरे निर्वाचनायोगेन प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते समानुपातिक प्रत्याशिनां गोप्यसूचीं निर्वाचनाधिकृतस्य कार्यालये प्रस्तोतुं राजनीतिक दलानि अनुरुद्धानि वर्तन्ते। आयोगेन ह्य विज्ञप्तिं प्रकाश्य अद्य श्वश्च अपराह्नस्य चतुर्वादनं यावत् विधिं प्रक्रियां प्रपत्राणि च प्रपूर्य प्रत्याशिनां गोप्यसूचीं प्रस्तोतुम् अनुरुद्धमस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशेन प्रतिनिधिसभा सदस्यानां कृते समानुपातिक पक्षतः दशोत्तरैकशतस्य प्रत्याशिनां प्रचयनस्य मापदण्डं निर्माय प्रत्याशिनां चयनस्य प्रक्रिया प्रारब्धास्ति। सानिपावर्तिनी दलस्य केन्द्रीय कार्यालये ह्य उपविष्टे उपवेशे दलस्य महाधिवेशनस्य कार्यतालिका परिमार्जन प्रभृतिषु विषयेषु विमृष्टमस्ति। केन्द्रीय कार्य सम्पादन समितेः ह्यस्तनोपवेशेन वर्तमान विकसितायां राजनीतिकावस्थायां विगतकालिके निर्वाचने दलस्य आधिकारिकाणां प्रत्याशिनां दलेन समर्थितानां प्रत्याशिनां च विरुद्धे प्रत्याशितां प्रस्तुतवतां जनानां तेषां प्रस्तावकानां समर्थकानां च विहितस्य दण्डनस्य अवशिष्टोवधेः कृते क्षमादानाय निर्णयो विहितोऽस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः अपरोपवेशः अद्य प्रातः एकादशवादने पुनः वसतीति दलेन ज्ञापितम् वर्तते। नेकपा एमाले दलस्य सचिवालयोपवेशः अद्य वसति। आसन्न प्रतिनिधिसभा सदस्यानां निर्वाचनस्य पूर्वकार्यस्य विषये विमृष्टुम् अद्य प्रातः एकादशवादने उपवेशः आहूतोऽस्ति इति एमाले दलस्य सचिवः डा राजन भट्टराय असूचयत्। एकादशतमस्य महाधिवेशनस्य अनन्तरं प्रथमवारम् आयोक्ष्यमाणे सचिवालयोपवेशे प्रतिनिधिसभायां समानुपातिक पक्षतः प्रत्याशिनां चयनस्य विषये विमृक्ष्यते इति सचिव भट्टराय असूचयत्। उपवेशः ललितपुरस्य च्यासलवर्तिनी दलकार्यालये वसति। कतिपय दिनेभ्य देशस्य तराई क्षेत्रे विभिन्नेषु जनपदेषु अत्यधिक शैत्येन जनजीवनं प्रभावितं वर्तते। शैत्येन तराई मधेस क्षेत्रस्य प्रायः 20 जनपदानि प्रभावितानि सन्ति। तराई क्षेत्रस्य कतिपय जनपदेषु आदिनं कुहरः व्याप्तोऽस्ति। तेन च बालबालिकाः वृद्धाः दीर्घरोगिणश्च अत्यधिकरूपेण प्रभाविताः सन्ति। अत्यधिक शैत्यस्य कारणेन आपणेषु जनानां गमनागमनं न्यूनीभूतमस्ति। मधेसप्रदेशस्य बहुषु जनपदेषु शैत्यस्य कारणेन रुग्णाः जनाः उपचाराय चिकित्सालयं प्राप्ताः सन्ति। कुहरस्य कारणेन पूर्वपश्चिम राजमार्गे दिने एव यानानां यानदीपं प्रज्वालयैव चालनस्य स्थितिरस्ति। सघना कुहिल्याः कारणेन समीपमपि द्रष्टुं न शक्यते इत्यतः सावधानेन यानानि चालयितुं प्रहरिणा अनुरोधः कृतोऽस्ति। अत्रान्तरे शैत्यात् सुरक्षायै उष्णप्रदायक वस्त्राणि धारयितुम् उष्णं रसयुतं च भोजनं स्वीकर्तुं च चिकित्सकैः परामर्शः दत्तः अस्ति। गृहमन्त्री ओमप्रकाश अर्यालः गदति सर्वकारेण नागरिकेषु विश्वासस्य आशायाश्च जागरणाय प्रयासः विहितो वर्तते। गृहमन्त्रालयस्य नेतृत्वस्य निर्वहणस्य शतदिनानां कार्यकालस्य उपलब्धिः पूर्वेद्युः सार्वजनिकुर्वाणः मन्त्री अर्यालः सर्वकारः सहयोगस्य वितरणे शान्तिसुरक्षायाः व्यवस्थापने सुशासनस्य स्थापने निर्वाचनस्य पूर्वकार्येषु च केन्द्रितोऽस्तीति अभाषत। तदवसरे गृहमन्त्री अर्यालः गत भाद्रस्य 23-24 दिवसयोः आन्दोलने व्यक्तभावनायाः अनुसारेण तात्कालिक परिस्थितौ हुतात्म परिवारेभ्य आहतेभ्यो जनेभ्यश्च आश्वासनं विश्वासं च प्रदाय आगामिनः फाल्गुन मासस्य 21 दिवसाय निर्धारितस्य निर्वाचनस्य पूर्वकार्येषु सर्वकारः सम्प्रति केन्द्रितो वर्तते इति प्रावोचत्। ऊर्जा जलस्रोत सेचन मन्त्री उज्यालो नेपाल इति दलस्य संरक्षकस्य कुलमान घिसिङ देशः अतः परं नूतन चिन्तनेन नूतन नेतृत्वेन नूतन कार्यदिशा च सहितः अग्रे वर्धिष्यते इति धारणाम् अभिव्यक्ति। ह्य उज्यालो नेपाल इति दलस्य नुवाकोट काष्ठमण्डप सम्पर्क मञ्चेन काष्ठमण्डपस्य बौद्ध स्थाने आयोजिते कार्यक्रमे मन्त्री घिसिङ देशे राजनैतिक परिवर्तनम् अपरिहार्यमस्ति इति प्रावोचत्।